आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदेहल्याः यशोभूमौ एशिया महाद्वीपस्य बृहत्तमस्य दूरसञ्चार माध्यम तन्त्रज्ञान कार्यक्रमस्य इण्डिया मोबाइल कांग्रेस 2025 इत्यस्य नवमस्य संस्करणस्य उद्घाटनं करिष्यति। चतुर्षु दिनेषु आयोजिते अस्मिन् कार्यक्रमे दूरसञ्चार क्षेत्रे उदयोन्मुख प्रौद्योगिकीनां च नवीन तम प्रगृति प्रदर्शिता भविष्यति, यत्र वैश्विक प्रमुखाः नीति निर्मातारः उद्योग विशेषज्ञाः नव प्रवर्तकाः च सम्मिलिताः भविष्यन्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् गतैकादश वर्षेषु देशे उल्लेखनीयानि परिवर्तनानि अभवन्। सः अवोचत् यत् पथ प्रवर्तक उपक्रमाः सम्पूर्णे देशे महिलानां यूनां कृषकाणां च सशक्तीकरणं कृतवन्तः। 25 कोट्यधिकाः जनाः दारिद्र्यात् मोचिताश्च। प्रधानमन्त्री नरेन्द्रमोदी सर्वकारस्य प्रमुखत्वेन राज्यराष्ट्रसेवयोः 25वें वर्षे प्रवेशन् कुर्वन् एतानि वक्तव्यानि अयच्छत्। जनान् प्रति कृतज्ञतां प्रकटयन् श्रीमोदी अवोचत् यत् भारतं वैश्विक अर्थव्यवस्थायाम् उज्ज्वलस्थानरूपेण वर्तते। सामाजिक प्रसार माध्यमे सः अवोचत् यत् देशे प्रमुखाः स्वास्थ्यसेवाः सामाजिक सुरक्षा योजनाश्च सन्ति। सः सूचितवान् यत् सर्वकारेण विस्तृतानि परिष्काराणि स्वीकृतानि सन्ति, अथ च सर्वक्षेत्रेषु भारतम् आत्मनिर्भरं कर्तुं जनभावना अस्ति च। या हि गर्व से कहो ये स्वदेशी हैं इत्यस्य स्पष्टम् आह्वानं प्रतिबिम्बयति। मुंबई नगरस्य द्विदिवसीय यात्रायां प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य नगरे प्रमुखानां परियोजनानां उद्घाटनं क्रियते। भारतं वैश्विक विमानयान केन्द्र रूपेण परिवर्तयितुं स्वस्य दूरदृष्टेः अनुगुणं प्रधानमन्त्री 50-60-19,000 कोटि रूप्यकाणां व्ययेन निर्मितस्य भारतस्य बृहत्तमस्य ग्रीनफील्ड विमानस्थानकस्य नूतनस्य नवी मुंबई अन्ताराष्ट्रिय विमानस्थानकस्य च प्रथमचरणस्य उद्घाटनं करिष्यति। एतदतिरिच्य प्रधानमन्त्री मोदी मेट्रो मार्ग इत्यस्य अन्तिमं चरणं च जनेभ्यः समर्पयिष्यति, यत् सम्पूर्णे देशे सम्पूर्णे दक्षिण मुंबई नगरे प्रमुखेषु व्यापारकेन्द्रेषु च अविरामं सम्पर्कं प्रयच्छति। सः मुंबई वन इति भारतस्य प्रथमं एकीकृतं सार्वजनिक परिवहन दूरभाषयन्त्रमपि उद्घाटयिष्यति, येन परिवहन निर्वाहकाणां संयोजनं भविष्यति। युनाइटेड किंगडम देशस्य प्रधानमन्त्री कीर स्टार्मर अद्यारभ्य भारतदेशस्य द्विदिवसीय यात्रां करिष्यति। प्रधानमन्त्री स्टार्मर इत्यस्य एषा प्रथमा भारतदेशस्य आधिकारिक यात्रा भविष्यति। भारतस्य ऋतुविज्ञान विभागेन अद्य असम, मेघालय, मिजोरम, त्रिपुरा, नागालैंड, मणिपुर, कर्नाटक, तमिलनाडु राज्ये, पुदुचेरी, करैकल क्षेत्रे भारतस्य पूर्वोत्तर राज्येषु च प्रचण्डतोऽधिक वृष्टिः भविष्यति इति पूर्वानुमानं प्रकटितम्। विभागेन कोंकण, गोवा, लक्षद्वीप, मध्य महाराष्ट्र, रायलसीमा इत्येतेषु प्रदेशेषु अपि विद्युत् पुरस्सरं वायुवेगेन सह वर्षया तापमाने अपचितिः भविष्यति। अन्तर्राष्ट्रिय क्रिकेट परिषद आईसीसी 25 सितंबर मासस्य सर्वोत्कृष्टः क्रीडकः इत्यस्य पुरस्कारस्य नामांकितानां सूचीम् अघोषयत्। पुरुषाणां वर्गे भारतात् अभिषेक शर्मा, कुलदीप यादवः च नामांकिताः सन्ति। तृतीयः नामांकितः क्रीडकः जिम्बाब्वे देशात् ब्रियान बेनेट वर्तते। इति वार्ताः।